उषा सानक्ता आब्रहते सुपेश साध्या बाक्षा मावरुणा मित्रो अर्यमान इंद्रम हवे भरतः पर्वतां अव आदित्यां जावा पृथिवी अपस्वाहा द्योश्च नः पृथिवी च प्रजेदसरथा वरे रक्षता बंहसो ऋषः माधुर्विदत्रा निररतिर्न एष तद्देवानाभवो अद्यावृणीमहे विश्वस्मान्नो अदितिः पात्वंहसो माता मित्रस्य वरुणस्य रेवताः स्वर वज्योतिरभृगन्नशेमहि तद्देवानामवो अद्यावृणीमहे ग्रावापदन्नपरक्षांसि सेधतु दुष्वप्न्यन्निरतिम् विश्वभद्रिणम् आदित्यम् शर्म मरुतामशेमहि तद्देवानामवो अद्यावृणीमहे ऐन्द्रो बर्हिस्येतदपिन्वदा बिडा बृहस्पतिः सामभिररक्वो अर्चतो सुप्रकेतम् जेमसे मन्मधेमहि तद्देवानामवो अद्यावृणीमहे दिविस्पृशै यज्ञमस्मारमश्विना जेराध्वरम् कृणुतम् सुम्नमिष्टये प्राचीनरश्मिमाहुतम् घृतेन तद्देवानामवो अद्यावृणीमहे उपह्वजे सुहवम् मारुतम् गणम् वाभकमृष्वम् सख्यादशम्भवम् राजस्पोषम् सौश्रभसा च धेमहि तद्देवानामवो अद्यावृणीमहे अपाम्बेरुम् देवधन्यम् भरामहे देवाव्यम् सुहवमध्वरश्रियम् स्वरश्मिम् सोममिन्द्रियमेमहि तद्देवानामवो अद्यावृणीमहे सने मदत्सु सनिता सनित्वभरभजम् जेवा जेवपुत्रा अनागसः ब्रह्मद्विषा विश्वगेनो भरेर तद्देवानामवो अद्यावृणीमहे ये स्थामनो आर्यज्ञजास्ते शृणोतन यद्वो देवा इमहे तद्दधातन जैत्रम् कृतम् रजमद्वेरवद्यशस्तद्देवानामवो अद्यावृणीमहे महदद्य महदामावृणीमहे वा देवानाम् बृहदामनर्वणाम् यथा वसुवेरदा तन्नशामहै तद्देवानामवो अद्यावृणीमहे महो अग्ने समिधानस्य शर्मण्यना गामित्रे वरुणे स्वस्तजे श्रेष्ठे श्याम सवितुः समेमनि तद्देवानामवो अद्यावृणीमहे ये सवितुः सत्यसवस्य विश्वे मित्रस्य व्रते वरुणस्य देवाः ते सौभगम् वीरभद्वामदप्नादधादनद्रविणम् चित्रमस्मे सविता पश्चादात्सविता पुरस्तात्सवितात्तरात्तात्सविता धरात्तात् सविता नः स्ववतु सर्वदातिम् सविता नो रासदान् दीर्घमायोः